सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे सप्तदशः पाठः, जुलै मासस्य नवमः दिनाङ्कः। एनाक्षरतमां नायमधिगम्य महेश्वर कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। काव्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। कारकप्रकरणे तृतीयाविभक्तिः अधीयमाना अस्ति। तत्र तावत् उपपदतृतीयविधायकानि शास्त्राणि आदौ प्रकृत्यादिभ्य उपसङ्ख्यानम् इति वार्तिकम् अधीतम्। यत्र प्रकृत्यादिगणे ये शब्दाः पठिताः तेषां तृतीयाविभक्तिर्भवति। यथायोगं सर्वविभक्त्यपवादः दीयते। यत्र यत्र याया विभक्तिः प्राप्ता तां बाधित्वा तृतीया विभक्तिः अनेन वार्तिकेन। अपवर्गे तृतीया कालाध्वनोः अत्यन्तसंयोगे फलप्राप्तिः, क्रियया कालाध्वनोरत्यन्तसंयोगे यत्र फलप्राप्तिः विवक्षिता तत्र तृतीया भवति। यथा क्रोशेन अनुवाकोऽधीतः, क्रोशं क्रोशपरिमितं मार्गं गच्छन् पूर्णमनुवाकं पठति तच्च साधयति अध्ययनेन इत्यर्थे क्रोशेन इति तृतीया विभक्तिः। क्रोशमधीतः इति द्वितीया तु द्वितीयायाः प्रयोगे तु अध्ययनस्य सिद्धिः अतः फलप्राप्तिः नाभवत् इत्यर्थः। सो सहयुक्ते प्रधाने इति अग्रिमं सूत्रं, सहार्थेन युक्ते अप्रधानस्य तृतीया भवति। पुत्रेण सह पिता, आगतः, स्थूलः इत्यादि। सो द साहित्य केन् बी क्रिया, गुण और् द्रव्य। सो द अप्रधान शाब्दिकं प्राधान्यं भवति प्रधानकर्तुः। पित्रा सह पुत्रः इत्युक्ते पुत्रस्य प्राधान्यं, पुत्रेण सह पिता इत्युक्ते पितुः प्राधान्यं। शाब्दिकं प्राधान्यं साक्षात् क्रियायोगेन अथवा अन्य द्रव्ययोगेन। यस्य तु साहित्यद्वारा योगः, सो बिकास् आफ् द असोसियेशन् आफ् द टुगेदर्नेस् देर् इस् असोसियेशन् वित् द क्रिया आफ् दिस् वि काल् इट् एस् अप्राधान्य द शाब्दिक अप्राधान्य। इवन् दो द कर्तृत्व इस् देर् फोर् बोत् पिता एण्ड् पुत्र विच् इस् डिरेक्ट्लि रिलेटेड् थ्रू द शब्द is what is pradhana, and that which is not indirectly related or relation is because of the sahitya or togetherness, we call it as apradhana. So apradhanasya tritiya bhavati anena sutrena. Yena angavikaraha anganyasya sthiti anganyasya santiti angam nama shariram yatra angasya vikarena sharirasya vikaraha lakshyate akshnakanaha। वस्तुतः अक्ष्णः विकारः, इट् इस् द विकार आफ् द ऐ, बट् इट् इस् बीङ्ग् इम्पोस्ड् आन् द बाडि, इट् इस् द अङ्गी, इट् इस् द काणः इति पुरुषे यदा आक्षिप्यते तदा तृतीया भवति, अङ्गवाचकस्य तृतीया भवति। येन नाम येन अङ्गेन विकारः दृश्यते तस्य अङ्गस्य तस्मादङ्गात् तृतीया विभक्तिः। इत्थम्भूतलक्षणे इति सूत्रं, कञ्चित् प्रकारं प्राप्तस्य लक्षणे। So, something which has attained a particular kind, like he has jatabhis tapasaha. Tapasatvam nama prakaram kena chitraptam. Tasya lakshanam athava chinham bhavati jataha, ataha jatabhis tapasaha. So, as Ravichandranji was mentioning before class, there is a counter example which the Kashika mentions here. Se vriksham prati vidyotate vidyutu. There also the vriksha is treated as a lakshana for vidyut, but vriksha has not itham bhutaha, no, it is not a particular, it has not attained that particular prakara, that is there, it is not the vriksha which is the particular property of the vriksha which is being indicated by the vidyut. If you see here jatabhistapasaha, so the property of tapasatva of that person is being indicated by the jata, that is ittham bhuta saha tapasatvam praptah sa prakarah nama tapasatvam jatabhihi gyapyate, But when you are saying Vriksham prati vidyotate vidyut, vidyut is a lakshana for, Vriksha is a lakshana for vidyut. But that lakshana, it is not indicating a particular type of, the particular property, it is directly indicating vidyut. It is not itthambhuta lakshana, it is just a lakshana. So, itthambhuta lakshane tritiya bhavati. Samjnyona tarasyam karmani, sampurvakasya janatehe prayoga. So, when janati, the jnya dhatu is preceded by the upasarga sam. Karmani, karmakarakasya, vikalpena tritiya vibhakti bhavati. Karakam tu karmaiva. So, it is karma. It is not karana, the property does not change. It is still karma. But the vibhakti here is tritiya. So, pitra sanjanite iti prayoga. Karmani dvitiya ityanena dvitiya vibhaktam tu pitaram sanjanite iti prayoga. Hetau sutram. Hetau tritiya bhavati. Hetuhu nama karanam. Karanam asakasya shabdasya tritiya bhavati. Atra prashnaha hetohu karanasya cha kah bhedah. Karanam ityasti tasya kartakaranayoh tritiya ityanena tritiya vidhiyate. Heto idanim hetu asakasya api tritiya. Kah bhedah hetohu karanasya cha. So hetuhu, the first veda is hetuhu dravyam prati karanam bhavitum arhati, gunam prati athava kriyam prati karanam bhavitum arhati. Karanam tu kriyam pratyeva karanam. So hetu can be the cause for either dravya or guna or kriya. Whereas karana is the cause for kriya. I mean, only when there is a direct association with kriya we have karana. Okay? Sadhaka tamam. Katya kriyayaha prakrishtopakarakam karanam bhavati. Okay? So that is the first thing. The second distinction between hetu and karana is karanam sarvada vyaparavat. Karana always has a vyapara of its own. That is, there is some vyapara which brings about the kriya. Whereas hetu does not have or need not have. It might have, it might not have. Hetu need not have a vyapara of its own. Okay. So hetu is a broader category which includes a karana which is either vyaparavatu or nirvyaparavatu, and it could be the cause for dravya, guna or kriya. Whereas karana is a particular kind of hetu which is generating a kriya. Kriya janakam vyaparava karanam. So karana is always a hetu. It is a particular kind of hetu. So that is called karana. So Ravichandran Jai gave a couple of karikas from Akhyapadiya which say the same thing. So, which is there in the thing. So Bhartrihari says, Dravyadi Vishayo Hetuhu, the same thing which is summed up in Karikas. So the Karikas are always generally very useful for remembering the Lakshana or summing up things. So Dravyadi Vishayo Hetuhu, Karakam Niyatakriyam. Hetu can be Dravyadi Vishayaha. Arthate Dravya Vishayaha Hetuhu Bhavitum Arhati, Guna Vishayakaha Kriya Vishayakova. Into Karakam Namakaranam. Niyatakriyam, kriyayaha vishaye eva bhavitum arhati. Iti prathamaha bhedaha hetohu karanasthita. Anashrite tu vyapare nimittam hetu rishyate. So and also, even when the nimitta does not have a vyapara, it can be a hetu. Whereas the karaka, the karana, should always be have a vyapara. So the next one is Priyayai Karanam Tasya Drashtasvatinitis Patha Hetvarthata Kriya Tasman Nakasvatinidhiyate. So this, I'm not sure if it applies to all cases. Okay, and actually what it says that Priyayai Karanam. The Karana is for Kriya. Kriya Janakam Karanam. Kriyarthameva Karanam. Tasya Drashtaha Pratinitis Patha. And if it is not one karana, you can have another. It can be replaced, he says. So you have, say, Parashunachinatti, Atinachinatti, and Yanakenapichinatti. You can have different karanas which are bringing about the same kriya. Okay? So karana is the instrument for kriya. So you can use different instruments for the kriya. Whereas he says, hetvartha tu kriya. For hetu, you are doing a kriya to bring about a hetu. So, the example which is taken there is punyena drishto harihi. Iti udaharanam drishtam kaumudyam. So, punyam, yajnyat punyam bhavati. Punyena harihi drishtaha. Yajna rupa kriya, kriya hetvartha. Arthat punya rupam hetum janayitum kriya kriya. So now you cannot replace the result. I mean, you are doing something for the result. So the result cannot be replaced. And that hetu is bringing about something else. So this applies to that particular example. But what about something like dandena ghataha? Does this, I mean, it is a hetu. Dandena ghataha is a dandaha hetu. But it is not hetvartha kriya. What is there? We have to look at that. The question is why difference between hetu and karana? Karana is a karaka. I mean there are other things which happen with the karaka. As we say, karaka vibhakti hi baliyati always. Okay, so karaka vibhakti is more important and kriyanvaya to with the kriyanvaya. So for that karaka vibhakti, we have the karana karaka as you. This is a question which I had when I was teaching this sutra yesterday. So I presume that should be the reason. So because hetu is a upapada vibhakti, and there could be cases where it can be ruled over by other upapada vibhakti. Whereas for karana, it should always be tritiya. It's what I assume. Any other questions? The question, okay, this last question was by Vitanjanjayan, why we have two different sutras for hetu and karana, because karana is hetu. So yeah, karana you are relating as a karaka, and there is a karaka vibhakti which is being told, whereas this is an upapada vibhakti. So there is a difference always between karaka vibhakti and upapada vibhakti. Okay, so to see cases where that is there. Say for example where you had that, what is that, Anurlakshane, where that sutra will overrule this sutra, right? So some cases where we have hetu tritiya ya apavadaha, we have exceptions to hetu tritiya in case of other upapada vibhakti. But if it happens to be a karana, it will always be tritiya. Any other questions? अग्रिमं अग्रेसराग कौमुद्यं गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका इदं न वार्तिकं केवलं दीक्षिताः वदन्ति. ओके या hetu is the cause or purpose of action. See, that is what, and that can be, hetu is the cause. I mean, it could be the purpose in some cases. So like say you are saying adhyayanena vasati. Adhyayanena vasati, it could be the purpose of action. And it can also be the cause. Huh. Is always the cause. Yeah. Yeah, I mean that will apply to that particular example of a hetu, but it does not apply to all hetu. Then it is, dandena ghataha. There could be something else, or some other hetu. If it is a general hetu, it could be replaced. No, it is not. That is why he gave it as an example for hetu. He says it is dravyam prati karanam, not kriyam prati. So it is not karanam. karana according to this particular level, this darshan, they have one. I mean, no, it is not karana, it is your hetu. It is a karana, it is a samvayi karana, not a karana, it is not a karana. It is a hetu. గమ్యమానా క్రియా కారక విభక్తౌ ప్రయోజికా. కశ్చన ప్రశ్న అస్తి అలం శ్రమేణ ఇది ప్రయోగ శ్రమేణ అలం ఇత్యస్తి తత్ర కథం తృతీయా విభక్తి ఇది ప్రశ్న. కిమపి సూత్రం ప్రవర్తతే, ఐ మీన్ వాట్ ఎవర్ ద సూత్రస్ యు స్టడీ కెనాట్ అప్లై దట్ కథం తత్ర తృతీయా విభక్తి. సో హి సేస్ తత్ర అలం కథం ఇది చేత గమ్యమానా క్రియా క్రియా సాక్షాత్ న ఉచ్యతే వాక్య గమ్యమానా బట్ త్రూ ద మీనింగ్ ఇట్ ఇస్ కన్వే ఐ మీన్ యూ కెన్ అజ్యూమ్ ద యాక్షన్ ఔట్ ఆఫ్ ద కాంటెక్స్ట్ ఔట్ ఆఫ్ ద ప్రయోగ తత్రాపి తాం క్రియాం ఆశ్రిత్యాపి కారక విభక్తి ప్రవర్తతే. గమ్యమానాపి క్రియా కారక విభక్తౌ ప్రయోజిక. సో గమ్యమానాపి ఇది వ్యాఖ్యానం. సో బిఫోర్ దట్ ద బాలవనామకర టేక్ ద వై దట్ క్వశ్చన్. సో నను అలం శ్రమేణ ఇత్యత్ర కార్యస్య కస్యచిదపి అశ్రవణాత్ సిన్స్ యు ఆర్ నాట్ హియరింగ్ ఎనీ అదర్ కార్య ఆర్ క్రియా యాక్షన్ కరణత్వ హేతుత్వయోహు అసంభవాత్ నీదర్ కరణ నార్ హేతు శ్రమేణ అలం ఇత్యుక్తే హేతుత్వమపి నాస్తి కరణత్వమపి నాస్తి కథం తృతీయా విభక్తిః ఇతి ప్రశ్నే గమ్యమానాపి ఇతి న కేవలం శ్రూయమాణా ఏవ క్రియా విభక్తౌ ప్రయోజికా కింతు గమ్యమానా అపి సో నాట్ ఐ మీన్ దట్ ఈవెన్ విచ్ దట్ ఇస్ నాట్ డైరెక్ట్లీ హర్డ్ యూజ్డ్ ఇన్ ద సెంటెన్స్ బట్ క్యాన్ బి అజ్యూమ్డ్ సో ఇట్ సో కరణతృతీయైవ ఇతి ఇయం ఇతి అభిప్రేత్య ఆహ. సో దిస్ థింగ్ అలం శ్రమేణ ఇస్ కరణతృతీయ. హౌ అలం శ్రమేణ ఇతి ఊషరక్షేత్రం పరిష్కుర్వాణం ప్రతి ఇదం వాక్యం ప్రదత్తం. సో దర్ ఇస్ అ క్షేత్ర అ ఫీల్డ్ విచ్ ఇస్ ఊషర దట్ విచ్ డస్ నాట్ గ్రో ఎనీథింగ్ దట్ విచ్ ఇస్ స్వాంపీ అండ్ ఇట్స్ నాట్ ఫిట్ ఫర్ ఫార్మింగ్. సో పరిష్కుర్వాణం ప్రతి సంబడి స్ట్రెంగ్ టిల్ దట్ ల్యాండ్ ఇదం వాక్యం ప్రదత్తం కిం అలం శ్రమేణ. సో ఇనఫ్ యువర్ ఎఫర్ట్స్ దట్ ఇస్ స్టాప్ యువర్ ఎఫర్ట్స్ అలం శ్రమేణ కహ అర్థః శ్రమేణ సాధ్యం నాస్తి ఇత్యర్థః. దట్ ఇస్ విత్ వాట్ ఎవర్ ఎఫర్ట్ ఇట్ ఇస్ నాట్ పాసిబుల్ టు డూ ఐ మీన్ అచీవ్ వాట్ యువర్ ట్రైయింగ్ టు డూ. సో సాధ్యం శ్రమేణ సాధ్యం నాస్తి. సో దట్ సాధ్య ఇస్ ద క్రియా నౌ టు అచీవ్ సంథింగ్. సో అత్ర అలమితి ఔషధక్షేత్రం పరిష్కుర్వాణం ప్రతి ఇదం వాక్యం ప్రవృత్తం. అత్ర అలమితి నన్యర్థే నిషేధే వర్తతే. సో అలం ఇస్ నిషేధ నిషేధార్థక. అలం భూషణ పర్యాప్తి శక్తి వారణవాచకం ఇత్య అమర. సో వారణ నిషేధ నిషేధార్థే అలం శబ్ద. సాధ్యం ఇది అధ్యాహార లభ్యం. So we take the adhyahara of sadhya. Adhyahara we do many many cases where you have. Okay. In all cases we say there is asti kriya adhyahara. Ramaha istyate ramaha asti istyate adhyahara bhavati. So adhyaharena sadhyam iti labhyam. Tadaha shramena sadhyam nasti ityarthaha iti. Sadhyaha khedadhayakatvat sadhane vyapratireva shramaha ityupacharyate. నను ఏవమపి సాధనీయస్య విహ్యాది ఫలస్య క్రియారూప. ఓకే. సో సద్యః ఖేదాధాయకత్వ సాధనే వ్యాపృతిరేవ శ్రమ. సో శ్రమ ఇస్ దట్ ద టైర్డ్నెస్. యు నో వాట్ ఇస్ శ్రమ. హి ఇస్ జస్ట్ డిఫైనింగ్ ఇట్. సో ఇట్ ఇస్ బికాజ్ ఇట్ ఇస్ ఇమీడియట్లీ కాసింగ్ సో మచ్ ఆఫ్ ఖేద ఫర్ ద సాధన. So that is called Shrama. Iti upajalyate. Nanu evamapi. So he says, even though you are taking Shramena Sadhyam Nasti, iti adhyahareti, iha sadhana kriyam prati shramaha karanam. So he says, which is the karana for it? Nanu evamapi sadhaniyasya vrishyadi phalasya kriyarupatva bhava katham shramasya tatra karanatvam. So what is being achieved through shrama? Through the effort, the vrishyadi phala, any grain such as vrihi, paddy and so on. So that is not kriya, right? So vrihi is not a kriya. So how do you call it a karana? Karanam ityukte kriyadhanakam. Sadhana kriyam prati shramaha karanam. So shrama is the karana for the sadhana kriya, for the action of doing that action which is aimed at getting the grain. Sadhyam ityatra prakriti bhutaha yaha dhatuhu tadarthaha sadhana kriya utpatyatmika tam prati shramena sadhyam nasti sadha samsiddhau iti dhatuhu. So this is one example of gamyamanapi kriya karaka vibhakto prayojika. Sakshat kriya nasti kintu vibhakti drishyate. Aparamapi udaharanam dadati shatena shatena vatsan payayati payaha. Shatena shatena vatsan payah payayati. He gives milk or feeds milk to the cow by 100. Shatena shatena kahartha shatena parichedya ityartha. Shatena parichedya ityartha. So what does it mean? If you look at the shateneti. So gamyamana api kriya vibhakto prayojika ityatra udaharanantaram aha vipsayam dvirvachanam shatena shatena iti. So vipsa is where you have many cows, hundreds of cows. So by each 100, so he splits, that is, he breaks the cows into 100. So each 100 he feeds milk. Vipsayam dirvachanam ekaikena shatena sankhyaya vatsan payayati iti pratiyamanarthaha tatra vatsanishtha shata sankhyayaha payane karanatvabhava parichedya iti gamyate. So it is not the karana for payana, not for feeding, but parichedya, to split or to break up the numbers into 100, okay, each 100. So that is where shata is the karana. Shatena payayati ityatra payana kriyayam karanatvam nasti apitu parichedane. Ekaika shata sankhyaya vatsan parichedya tadatmika vatsebhyo vyavritya payayati ityarthaha. So he separates each set of 100 and he feeds those 100. Tathacha shatasankhyayaha parichedam prati karanatvam iti bhavaha. So even here, that action of parichedya is being taken by adhyahara and is not directly seen in the prayoga. Tathapi gamyamanapi kriya karaka vibhakto prayojika ityanena siddhyati ityarthaha. To the last part of Tiya Vibhakti. Ashishta Vyamahare Danaha Prayoge Chaturthyarthe Tritiya. Ashishta Vyamahare. So Ashishta iti idamcha danascha sache chaturthyarthe ityanena jnapyate iti padavyavasthayam vakshyate. So there is a sutra there. Danascha sache chaturthyarthe ityatra Atmane padam vidhiyata dhane dhatohu. So sache chaturthyarthe iti asti. So chaturthyartha katham iti chaturthyarthe katham iti yukte anena tena sutrena idam vartikam yapitam iti. So asishtavyavahare dhanaha वैदिकमार्गानुयायिनः शिष्टाः. शिष्ट अशिष्ट इत्युक्ते किम्? वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेताः अशिष्टाः. तेषां व्यवहारः आचारः तस्मिन् विषये दाणधातोः प्रयोगे सति चतुर्थ्यर्थे सम्प्रदाने तृतीया मात्रा इत्यर्थः. सम्प्रदाने अत्र तृतीया भवति, यथा कर्मणि तृतीया दृष्टा. संजानीते इत्यत्र कर्मणः तृतीया विभक्तिः, अत्र तु सम्प्रदानस्य तृतीया विभक्तिः इत्यर्थः. दास्या संयच्छते कामुकः इति उदाहरणम्. दास्यै ददाति इत्यर्थः. कामुकः दास्यै किमपि ददाति, कामेच्छया. सो दट् इस् वै द वर्ड् कामुक इस् टु इण्डिकेट् द अशिष्टव्यवहार वेर् हि इस् नाट् बिहेविङ्ग् लैक् अ शिष्ट. ओके, दास्यै टु अ मेड् सो फार् हिस् पर्पसस् विच् इस् नाट् शिष्ट. अशिष्टव्यवहारे दास्यै संयच्छते, हि गिव्स् सम् गिफ्ट् आर् संथिङ्ग् इस् सो दास्यै इति चतुर्थ्यर्थे अर्थात् सम्प्रदानाय चतुर्थी विभक्तौ प्राप्तायाम् अनेन तृतीया विभक्तिः दृश्यते. दास्या संयच्छते कामुक इति. दास्यै कामुकः प्रयच्छति इत्यर्थः. कामुकः इत्यनेन रत्यर्थम् इति गम्यते. दास्यां रतिः धर्मशास्त्रनिषिद्धत्वात् सिन्स् इट् हस् बीन् नाट् बीन् गिवन् वै द धर्मशास्त्र आर् साङ्क्षन् वै द धर्मशास्त्र अशिष्टव्यवहारः इति भावः. धर्म्ये तु भार्यायै संयच्छति. अन् द अदर् हेण्ड् हि इस् गिविङ्ग् संथिङ्ग् टु हिस् वैफ् विच् इस् अ धर्म विच् इस् अ शिष्टव्यवहार. तदा तु भार्यायै संयच्छति, किञ्चित् प्रददाति. धर्म्ये तु भार्यायै संयच्छति. अशिष्टपदप्रयोजनमाह धर्म्ये तु इति. धर्माद् अनपेतः धर्म्यः इत्यर्थः. न तृतीया इति शेषः. सो देर् इस् नो तृतीया इफ् इट् इस् नाट् अशिष्टव्यवहार. अशिष्टव्यवहारे एव तृतीया. तृतीया विभक्त्या अशिष्टव्यवहारः इति गम्यते. न तृतीया इति शेषः. धर्मपथ्यर्थन्यायादनपेते इति यत् इति अस्माकः. सो दट् इस् द धर्म्य इस् डिरैव्ड् बै द यत् प्रत्यय. सो दट् विच् इस् नाट् डिवियेटिङ्ग् फ्रम् द पात् आफ् धर्म इस् धर्म्य. Yes, the Atmanepada and Parasmaipada is that because the Atmanepada is given. Dhanashta sate chaturthyarthe. Yatra chaturthyarthe tritiya, tatraiva Atmanepadam bhavati. Iti etadadharenaiva Atmanepadam vihitam. Ataha asmin prayoge Atmanepadam drashyate. Whereas if it is chaturthi, saksha chaturthi, tatra sanyachati iti Parasmaipadam bhavati. शिष्टव्यवहारे तु चतुर्थी विभक्तिरेव भवति. तत् चतुर्थी अण्ड् परस्मैपद संयच्छति. इन् तृतीया इट् इस् ऐ मीन् इन् अशिष्टव्यवहार इट् इस् तृतीया. अण्ड् बिकास् इट् इस् चतुर्थ्यर्थे तृतीया, बेस्ड् आन् दट् वी हेव् द सूत्र दानष्टसाते चतुर्थ्यर्थे अण्ड् इट् गिव्स् आत्मनेपदम्. So this is about the Tritiya Vibhakti Prakarana. We saw both Karaka Tritiya and Upapada Tritiya. So there are a few examples here. I want you to work them out and see what is the how do we have Tritiya Vibhakti. Tritiya Vibhakti hi kena sutrena vidhiyate. So yadyat padam rakta varnena chintitam. तस्मिन् पदे तृतीया विभक्तिः केन सूत्रेण. वाट् इस् द निमित्त फार् तृतीया विभक्ति इन् ईच् आफ् दीस् केसस्. अप्लोड् द फैल् विल् बि अप्लोडेड् टुमारो, सो यु केन् टेक् द एक्साम्पल्स् फ्रम् द फैल्. सो बिफोर् नेक्स्ट् क्लास् विल् डिस्कस् विच् इस् द निमित्त फार् तृतीया विभक्ति इन् ईच् आफ् दीस् केसस्. So the next part.
Last week the classes have not uploaded. Right, Anjanji? Did you not get the audio or video? Alright, okay. I thought I uploaded. Okay. So,
he says it has been uploaded. Just check it out. I think it has been uploaded.
So this will also be uploaded by another couple of days.
चतुर्थी विभक्त आद कारक चतुर्थी
तो चतुर्थी इज द विभक्ति और
संप्रदान कारक से चतुर्थी विभक्ति अतः आद संप्रदान नाम किम इति कर्मणा यम अभिप्रैति स संप्रदानम इति संप्रदान संज्ञा विधायक सूत्र कर्मणा यम अभिप्रैति सह संप्रदानम इति पंच पदानि सन्ति सूत्रे कारके इत्यधिकारः दानस्य कर्मणा यम अभिप्रैति सह संप्रदानसंज्ञः स्यात्
सो देयर इज संप्रदान स्टेटेड एज एन अन्वर्थकम् सो फ्रॉम देयर ही सेइंग दानस्य कर्मणा सो देयर इज समथिंग इज बीइंग गिवन तो तत्र कर्म किमपि भवति यथा पुस्तकं ददाति पुस्तकं ददाति तत्र पुस्तकं दानक्रियायां कर्म यम अभिप्रैति यम उद्दिश्य दीयते सो टू हूम दिस कर्म इज इंटेंडेड टू बी गिवन यम प्रति उद्दिश्य कर्म दानस्य कर्म यम प्रति उद्देशः सः उद्देशः संप्रदानसंज्ञः भवति सो दैट पर्सन To whom this karma of dana kriya is intended is sampradana. Okay, very good definition. So karmana emave praiti iti. Karma samyakena gavadi dravyena yam abhipraiti sheshitvena adhyavasyati saha sampradanam sheshitvam bhoktrutvam. So that which is intended as the bhokta, that is, as the intended recipient of the karma of a dana. Karma samyakena gavadi dravyena. So, any dravya which is the karma karaka for that dana. So, yaha yam udishya tadhiyate saha sampradana samyaha bhavati. Sampradiyate yasmai tat sampradanam iti anvartha samya esha. So, it is an anvartha samya. That is, the samya or the derived meaning agrees with the samya. So this point is under debate, that is maybe not in all cases, because it says later in the bhashya that it need not always be dana and so on, but that is the general case where sampradana is intended. Okay. So tatascha sampradiyate yasmai tat sampradanam iti anvartha samya esha. ततश्च तस्याः क्रियायाः कर्मणा इति आकांक्षायां दानस्य इति गम्यते सो द कर्म ऑफ विच क्रिया इज द क्वेश्चन सो बिकॉज इट इज एन अन्वर्थसंज्ञ संप्रदीयते यस्मै इति संप्रदानं सो वी टेक दानस्य कर्मणा दैट इज वाई द सूत्रार्थ इज दानस्य इत्यादिना सो दान देय द्रव्योद्देश्यं संप्रदानम् इति फलितम् So, deyam yad dravyam asti, yavadikam, taduddeshyam. So, that to whom it is intended is sampradana. So, danasya itikim, payonayati devadattasya. Devadattartham saha payahanayati. He carries milk for devadatta. अत्र देवदत्तस्य पयोनयन उद्देश्यत्वेति ही इज कैरिंग इट फॉर देवदत्त इट इज द उद्देश्य देवदत्तः उद्देश्यम् नयनस्य उद्देश्यम् किन्तु संप्रदानत्वं न भवति किमर्थम् पयसः दानकर्मत्वाभावात् सिंस इट इज नॉट दानक्रिया पयः नयनक्रियायां कर्म न तु दानक्रियायां अतः तत्र संप्रदानत्वं नास्ति इत्यर्थः So there is a huge discussion in many conversations, what exactly is dana and so on. Say for example, there is a general thing where they say swasvatva nivritti purvakam parasvatva utpadanam danam ityadi. So but that is not actually accepted in the bhashya, because one of the examples which the bhashyakara gives is khandikopadhyaya shishyaya chapetam dadati. So the khandikopadhyaya, khandika is a kind of atharvana veda, so he slaps the student is an example which the bhashyakara gives. So shishyaya chapetam dadati ityatatu, it is not like dana. Vipraya gam dadati ityatatu svasvatva nivritti purvakam, so something which belongs to somebody, so giving to somebody else and saying it is from now on yours and not mine is dana. I mean, that is the general action of dana. But from the examples which bhashyakara gives, shishyaya chapetam dadati, so that is not actually dana. I mean, the chapeta, the slap is not upadhyaya. So even in such cases, wherever you have that dana, you can have sampradana and chaturthi vibhakti based on the sampradana. So chaturthi sampradane iti vibhakti vidhayakam sutram vipraya gam dadati. Vipraha goho dana kriyayam karma, so kam uddishya diyate vipram uddishya diyate, ataha vipraha sampradanam, sampradane chaturthi vibhakti vipraya gam dadati. So dana kriyaya sambandhum kartuhu ipsita tamatva, since it is ipsita tama gauhu karma, gauhu karmatvam asti, so karmanaha abhiprayanam asti vipram prati, ataha viprasya sampradanam, karmanaha uddeshyam vipraha tasma viprasya sampradanatvam bhavati. Anabhihite ityeva, so anabhihite chaturthyam, anabhihite sampradane chaturthi vibhakti bhavati, yatra tu sampradanam abhihitam tatra chaturthi vibhakti na bhavati. So anabhihitadhikara extends over the entire vibhakti prakarana, right? So as long as there is a any vibhakti, so it is anabhihita. It means that particular sense is not being conveyed by anything else. So if that sampradana has been conveyed by anything else, diyate asmai iti daniyo vipraha ityarthi. Ata sampradana arthe aniyar pratyayah. Okay, daniyaha ityatra sampradane aniyar. So the aniyar, which is a krut pratyaya, is giving the sampradana. Therefore you do not have daniyaha vipraya. It is daniyaha vipraha ityeva. Okay, diyate asmai iti daniyaha vipraha. So we will stop here and we will continue in the next class.